कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनश्रुवन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिदेवते धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुप्यामुतते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया न सर्वाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते विवश्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यता नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् ऐगश्च सर्वाजम्बयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत वभ्रस्व मङ्गलः चेमागुम् रुद्र अभितो दिक्षश्रुता सहस्रशो वैशागुम् एडयीमहे असव्यो वसर्पति नीलग्रीवो विलोयितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृळयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय वीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रवश धन्वनस्त्वमुभयोरात्मयोर्ज्याम् याश्च देहस्तैषव परात भगवो वप अवतत्य धनुस्वगुम् सहस्राक्षशतेषु दे निशील्य शल्यानामुका शिवो न सुमना भव विन्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आबुरस्य निषङ्गतिः याते हेतिर्मीडुष्टवहस्ते बभूवते धनुः तयास्मान् विश्वस्त्वमयक्ष्मया परिम्बुजा नमस्ते अस्त्वायुधाय नातदाय दृष्टवे उमाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यभावे सेनान्ये दिशां च वसये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां वदये नमो नमः सस्त्विञ्जराय त्विषीवते पतीनां वदये नमो नमो बब्लुषाय विव्याधिरेतानां वदये नमो नमो हरिकेशायोपवीतिने पुष्टानां वदये नमो नमो भवस्य हेत्यै जगताम् वदये नमो नमो रुद्राय तथा विनिक्षेत्राणाम् वदये नमो नमः सूताय हन्त्याय वनानाम् वदये नमो नमो रोहिताय स्तवतये वृक्षाणाम् वदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् वदये नमो नमो भुवन्तये वारिवस्कृत औषधीनाम् वदये नमो नम उच्चैर्दोषाय क्रन्दयते पत्तीनाम् वदये नमो नम कृष्णवीताय धावते सत्वराम् वदये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् वदये नमो नमः ककुभाय निषङ्गिणे सेनानाम् वदये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् वदये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् वदये नमो नमो निचेरवे परिचरायारण्यानाम् वदये नमो नमः श्रिकाविभ्यो जिगातुम् सद्यो मुष्णताम् वदये नमो नमो शिवद्भ्यो नक्तम् चरव्यप्रकृन्तानाम् वदये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् वदये नमो नम इषुमद्भ्यो धन्वामिभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छन्व्यो विसृजभ्यश्च वो नमो नमो स्वन्व्यो नित्यभ्यश्च वो नमो नम आचीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम स्थितभ्यो दावभ्यश्च वो नमो नम सवाव्यः सवापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नमः आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपतेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपदेभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यश्च संग्रहेतृभ्यश्च नमो नमः नम सक्षद्योरथकारेभ्यश्च नमो नमः नम कुलालेभ्यः कर्मारेभ्यश्च नमो नमः नम पुञ्जित्रेभ्यो निषादेभ्यश्च नमो नमः नम शुक्रभ्यो धन्वकृद्भ्यश्च नमो 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 मृगयोभ्यश्वरेभ्यश्च नमो नमो नम स्वभ्यश्वमदिभ्यश्च नमो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कवर्णिरे च व्युक्तकेशाय च नमः सहस्राक्षाय च शतध्वन्द्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो गृहते च वर्षेयते च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शेप्याय च नमः ऊर्ध्याय च वत्सन्याय च नमः श्रोतस्याय च ध्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुध्नेयाय च नमः सौख्याय च व्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शोराय च वविन्दते च नमो वर्मिणे च वरोधिने च नमो भिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमशाय च नमो दूताय च प्रयिताय च नमो निषङ्गिने चेच्छुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च मत्याय च नमः काट्याय च नेप्याय च नमः शोध्याय च सरस्याय च नमो नात्याय च वैशल्ताय च नमः तोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेध्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो मात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवतराय च नमः शेत्याय च कोल्याय च नमः भार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आदार्याय च लाघ्याय च नमः षष्ट्याय च वेद्याय च नमः शिखत्याय च प्रवाह्याय च नमः हिरण्याय च प्रमथ्याय च नमः केगुंशिराय च क्षयणाय च नमः गवर्गिणे च मुलस्तये च नमो नोष्ट्याय च गृह्याय च नमः सल्प्याय च गेत्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः षष्ट्याय च हरिद्याय च नमो लोक्याय चोलप्याय च नमः ऊर्ध्याय च सूर्याय च नमः पर्याय च वर्णशत्याय च नमो पगुरमानाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विच्छेनकेभ्यो नमो विचिन्वकेभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धसस्पते दरिद्रन्नीलोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा वेर्मा रोमो येषाम् किञ्च राममत याते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजीतया नो मृणजीवसे इमागुम् रुद्राय तवसे कवर्दिने जयत्वेराय प्रवरामये मतिम् यथा दशमसत्त्वमदे च दुष्पदे विश्वम् पुष्टम् गामे अस्मिन्नरातुरम् वृणानोरुद्रोतनोमयस्कृदक्षयत्वेराय रमसा विनेमते यच्छञ्चयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानौ क्षन्तमुतमानौ क्षितम् मानो वदे पितरम् मोतमादरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो घोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रवामितो वरिर्हविष्मन्तो नमसा विदेमते आरार्ते गोग्न उतमोरुषग्ने शयत्वेराय सुम् नमस्मेते अस्तो रक्षा च नो अनिषदेव ब्रूयता च नः शर्म यच्च द्विवराः तुहि श्रुतम् गर्तसदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् मृणाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव वन्तु सेना परिणो रुद्रस्य हेतिर्मृणक्तु मरित्वेषस्य दुर्मतिरगायो अवस्थिरा भगवन्यस्तनुष्वीरुस्तोकायतनयाय मृणया वीरुष्टमशिवतमशिवो न सुमनाभव परमे वृक्ष आयुधन्निधाय कृत्तिम् वसान आचर विनाकम् विप्रदागहे विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव बन्तुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः ताशामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा हरिभूम्या तेषागुम् सहस्रयो जने वन्वानि तन्मते अस्मिन् महत्यन्नवेऽन्तरिक्षे भवादि नीलग्रीवाश्रितकण्डाः सर्वा अधः क्षवाचराः नीलग्रीवाश्रितकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मे जरा नीलग्रीवाभिरोहिताः ये भूतानामधिपतयो विशिकासख्यवर्दिनः ये अन्येषु विविद्यन्ति मात्रेषु विमतो जनान् ये पताम् पतिरक्षय ऐलवृदायम् युधः ये तीर्थानि प्रचरन्ति स्विकावन्तो निषङ्गिणः ये एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसः सयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदेचेर्दशोद्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् द्विष्मो यश्च नो द्वे स्थितम् भोजम् मे ददामि त्र्यम्बकय्यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु यो औषधेषु यो रुद्रो विश्वभुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे यज्ञस्य वायया सर्वान् वयजामहे नृत्यवे स्वाहा नृत्यवे स्वाहा प्राणानाम् नन्दिरशिरत्र वामि शान्तकः तेनाभ्यायस्व नमो रुद्राय विश्ववे मृत्युर्मे पाहि तमस्तु यत्सु सुरन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् ये विश्वभे स यो यगुम् शिवाभिवर्षणः ॐ शान्ति 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 ॐ शं च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविक् च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्मि कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागुस्तमतिर्हतः अथो माता तो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता एताभिः सह सर्वे हता अहरावन्द्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फन्मसि ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतो तद्वक्तारमवतो अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तक्षेक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अतातः सगुंहिताय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामः सगुंहिता इत्याचक्षते अताधिलोकम् पृथिवीपूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निपूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यपूर्वरूपम् अन्ते वास्युत्तररूपम् विद्यासन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहनुपूर्वरूपम् उत्तराहनुरुत्तररूपम् वासन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मामहासगुंहिताः य एवमेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसाम् वृषभो विश्वरूपः छन्दोऽभ्योद्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पीतः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणा चिरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह लोमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशो जने सानि स्वाहा श्रेयान्वस्य सोऽसानि स्वाहा त्वम् त्वा भगप्रविशानि स्वाहा समा भगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहम् त्वयि मृजे स्वाहा यथा पप्रवसायन्ति यथा मासा अहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्य स्वा भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः तासामुहस्मैताम् चतुर्थीम् माहाशमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंसि महीयन्ते भूरिति वा रुचः भुव इति सामानि सुवरिति यजोगुंसि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वेऽस्मै देवा बलिमावहन्ति स य एषोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपो यशीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति ఆకాశ శరీరం బ్రహ్మ సత్యాత్మం ప్రాణారామం మన ఆనందం శాంతి సమృద్ధమృతం ఇతి ప్రాచీన యోగ్యోపాస్వా పృథివ్యంతరిక్షం ద్యోర్దిశో వాంతర దిశాః అగ్నిర్వాయురాదిత్యశ్చంద్రమా నక్షత్రాణి ఆపఔషధయో వనస్పతయ ఆకాశ ఆత్మా ఇత్యాది భూతం అసాధ్యాత్మం ప్రాణో వ్యానోపాన ఉదానః సమానః చక్షుశ్రోత్రం మనోవాక్త్వక్ చర్మమాగుంసగుస్నావాస్తి మజ్జా ఏతదధివిధాయ ఋషిరవోచత పాంతం వా ఇదగుం సర్వం పాంతే నైవ పాంత్వగుస్పృణోతి తే ఓమితి బ్రహ్మ ఓమితిదగుం సర్వం ఓమిత్యేతదనుకృతిహస్మవా అప్యోశ్రావయేత్య శ్రావయంతి ఓమితి సామాని గాయంతి ఓగుంషోమితి శస్త్రాణి శగుంసంతి ఓమిత్యద్వర్యుం ప్రతిగరం ప్రతిగృణాతి ఓమితి బ్రహ్మా ప్రసౌతి ఓమిత్యగ్నిహోత్రమనుజానాతి ఓమితి బ్రాహ్మణ ప్రవక్షన్నాః బ్రహ్మోపాప్నవానేతి బ్రహ్మైవోపాప్నోతి ఋతం చ స్వాధ్యాయ ప్రవచనే చ సత్యం చ స్వాధ్యాయ ప్రవచనే చ తపస్య స్వాధ్యాయ ప్రవచనే చ దమస్య స్వాధ్యాయ ప్రవచనే చ శమస్య స్వాధ్యాయ ప్రవచనే చ అగ్నయస్య స్వాధ్యాయ ప్రవచనే చ అగ్నిహోత్రం చ స్వాధ్యాయ ప్రవచనే చ అతిథయస్య స్వాధ్యాయ ప్రవచనే చ మానుషం చ స్వాధ్యాయ ప్రవచనే చ ప్రజా చ స్వాధ్యాయ ప్రవచనే చ ప్రజనస్య స్వాధ్యాయ ప్రవచనే చ ప్రజాతిశ్చ స్వాధ్యాయ ప్రవచనే చ సత్యమితి సత్యవచారాతీతరః తప ఇతి తపో నిత్య పౌరుషిష్ఠిః స్వాధ్యాయ ప్రవచనే ఏవేతి నాకో మౌద్గల్యః దద్ధి తపస్తద్ధి తపః అహం వృక్షస్య రేరివ కీర్తిః పృష్టం గిరేరివ ఊర్ధ పవిత్రో వాజినేవ స్వమృతమస్మి ద్రవిడ పుంసవర్చసం సుమేధా అమృతోక్షితః ఇది త్రిశంకోర్వేదానువచనం వేదమనూచాచార్యో అంతే వాసినమనుషాస్తి సత్యం వద ధర్మం చర స్వాధ్యాయాన్మా ప్రమదః ఆచార్యాయ ప్రియం ధనమాహృత్య ప్రజాతంతుం మా వ్యవచ్ఛేత్సే సత్యాన ప్రమదితవ్యం ధర్మాన ప్రమదితవ్యం కుశలాన ప్రమదితవ్యం భూత్యేన ప్రమదితవ్యం స్వాధ్యాయ ప్రవచనాభ్యాం న ప్రమదితవ్యం దేవపితృకార్యాభ్యాం న ప్రమదితవ్యం మాతృదేవో భవ పితృదేవో భవ ఆచార్యదేవో భవ అతిథిదేవో భవ యాన్యనవద్యాని కర్మాణి తాని సేవితవ్యాని నో ఇతరాణి యాన్యస్మాకగుం సుచరితాని తాని త్వయోపాస్యాని నో ఇతరాణి ఏకేతాస్మచ్చేయాగుంసో బ్రాహ్మణా तेषां त्वयासनेन परह्रस्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् व्रिया देयम् संविदा देयम् यत् यदि के कर्म विचिकित्सा वा वृद्धविचिकित्सा वा स्यात् ये तत्र ब्राह्मणा संहर्षिणः युक्ता युक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संहर्षिणः युक्ता युक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेताः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रस्यं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् हृदमवादिशम् सत्यमवादिशम् तन्मामावेत् तद्वक्तारमावेत् आवेन्माम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपतिः ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः देव चक्षुरादतम् तद्विप्रासो विपन्यवो जाग्रवागुम् सस्सविन्दति विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेणनाकमेतम् गुहायाम् विप्राजदेतद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थ सन्न्यासयोगाध्वनिर्यच्छुद्धसत्त्वाः ते ब्रह्मलोके त्वपरान्तकाले परामृतात् परिमुच्यन्ति सर्वे धनम् विपापम् परमेष्णभूतम् यत्पुण्डरीकम् पुरमध्य सद्गुस्तम् तत्राभिधनम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परस्य महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्त लोकाः सुखिनो भवन्तु समस्त लोकाः सुखिनो भवन्तु समस्त लोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति